नमस्सर्वेभ्यः अद्य कृदन्तपाठस्य आरम्भं कुर्मः. भूमिकारूपेण कृदन्तानां विषये किञ्चित् ज्ञात्वा अग्रे गच्छामः. सो वेल्कम् टु द कृदन्त कोर्स्. फार् दोस् हु आर् attending a webinar for the first time, a few general helpful information maybe. So attending the webinars is quite easy. So as you would have received an email, so before every class you will get an email from GoToWebinar, and you can use the link given in that email to attend the live classes. After the class, within a couple of days, we will upload all materials. So in our website transcriptsfromhome.in. So if you have not registered in our portal, please do so, because all materials will be accessible from the portal. So this is our portal. You have to register once, a free registration with your email ID, and after that you can sign in, and there you have the Kridanta course. So you have to use the take this course button to join the course in the portal, and lessons will be posted right here. Okay, so you will be able to get the video recording of the class, the audio recording, any presentations or notes which I use, exercises, and everything will be accessible from the portal. So during the live classes, by default, all of you will be muted, because it will cause too much noise it is not muted. Even noise from one microphone can be very disturbing. So by default you are muted, but the class is mainly interactive. So for interaction there are several ways. First thing, if you have a question, you have two options. One is a raising your hand option. There is a hand symbol which should be visible to you in your panel. So by clicking on that, you can raise your hand. So if you raise your hand, I'll look at it and stop, maybe at that point or after some time, and I'll unmute you and allow you to ask your question. Or there is a questions panel wherein you can type in your questions if you have any. So I can look at the questions and answer them accordingly. So the course will have exercises which we'll be doing, some of them which we'll be doing during the class, and some which you will be doing after the class at home. So for exercises in class, again you can volunteer to answer by raising your hands. So based on the number of people who have volunteered and based on the time, I will unmute you and ask for your answers. Okay. So Kridantaha, the main focus of this course is on Kridantaha, which is understanding what are Kridantas, and more importantly, knowing how to use Kridantas in sentences. We will study, so Kridantas, as we'll see today, are quite extensive. So we will study some of the major Kridantas and understand how to use them. Okay? So, Vargaha Prayena Samskritenaiva Bhavati. Okay, so we'll be using Sanskrit for the most major part of the class. So again, if you do not understand anything, do ask, so we can redo it in English. Kintu prayena sarala samskriteneiva vargaha bhavanti avagantum sulabham api bhavati tatra bhayam navashyakam yat kathyate tat dvivaram va kathayami nischayena avagamanam bhavati yadi na bhavati tarhi punaha kathayishyami bhavantah api yathashakti संस्कृतेनैव वक्तुं प्रयत्नं कुर्वन्तु. दोषाः भवति चेत् चिन्ता नास्ति, तथैव भाषायाः अभ्यासः भवति. अद्य प्रारम्भं कुर्मः. आदौ कृदन्ताः इत्युक्ते किम् इति ज्ञातव्यम्. तत्र पदम् इति भवति, वाक्यं पदम् इति भाषायां मूलम् अवयवद्वयम्. एकं तु वाक्यं, वाक्यादेव वस्तुतः अर्थबोधः भवति. एकं वाक्यं श्रुत्वा एव वयम् अर्थम् अवगच्छामः. किन्तु वाक्ये पदानि सन्ति, अतः पदानाम् अर्थद्वारा वाक्यस्य अर्थावगमनं भवति. अतः पदानि ज्ञातव्यानि. केनचित् स्मारितं, मङ्गलं न कृतम्. इट् इस् ट्रेडिशनल् टु स्टार्ट् वित् अ मङ्गलम्. So since we are not doing any specific text, there is no specific mangalam for this, but still for our this we have to do mangalam. Yontah pravishyamam avachamimam prasuktam sanjeevayatyakhila shaktidharasvadhamna anyamshcha hasta charana shravanatvagadeen प्राणान्नमो भगवते पुरुषाय तुभ्यम्. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. सो संस्कृते पदं भवति, पदे पुनः अवयवाः भवन्ति. यत्किमपि पदं भवतु तत्र भागद्वयं भवति, एका प्रकृतिः अपरः प्रत्ययः. प्रायेण सर्वेषु पदेषु अयं विभागः द्रष्टुं शक्यते. यत्र पदम् एकं भवति, सो पदम् इन् जनरल् अ वर्ड्. सो यत्किमपि पदं तत्र भागद्वयं भवति, प्रकृतिः प्रत्ययः. प्रकृतिः रूट् वर्ड्, प्रत्ययः सफिक्स् इति कथयामः. तत्र उभयोः अर्थः भवति, प्रकृतेः कश्चित् अर्थः एवं प्रत्ययस्य कश्चित् अर्थः. इदानीम् उदाहरणार्थं संस्कृतम् इत्येव पदं पश्यामः. संस्कृतम् इति एकं पदम्. तत्र संस्कृत इति प्रकृतिः, सु इति प्रत्ययः. संस्कृतम् इदं संस्कृतम् इति यदा प्रयोगः, तत्र संस्कृतम् इति पदे संस्कृत इति प्रकृतिः प्रकृतिभागः, सु इति प्रत्ययभागः अस्ति. अयं प्रकृतिप्रत्ययभागः व्याकरणज्ञानेनैव भवति. सो नार्मलि इन् द लोक वि अण्डर्स्टाण्ड् वाक्य अण्ड् पद, बट् टु गो विदिन् अ पद वि नीड् व्याकरण, बिकास् इट् इस् व्याकरण विच् मेक्स् दिस् डिविजन्स् आफ् प्रकृति अण्ड् प्रत्यय. So for now, it is perfectly fine if you do not know any of these. All you need to understand that there are prakriti and pratyaya. Punaha samskrita iti asti, tadapi ekam na. So it is not just one. Tatra vastutaha prakriti dvayam. Sam iti eka prakritihi, tatra su iti pratyayaha. Krita iti prakritihi, su iti pratyayaha. Punaha vibhagaha. अस्ति. तत्र कृत इति अस्ति. तत्र पश्यामः चेत् तत्र पुनः कृ इति प्रकृतिः, क्त इति प्रत्ययः. सो अयं प्रकृतिप्रत्ययविभागः एकः न. इट् डस् नाट् मीन् एकं पदं चेत् तत्र एक एव प्रकृतिः, एक एव प्रत्ययः इति नास्ति. इट् इस् यूजुवलि अ मल्टि लेवल् कन्स्ट्रक्ट्. ओके, सो वी हेव् वन् बेस्. So we add one pratyaya, we add one more, and we add words in between. Finally, we get a word. Okay. Evam bhavati. Punaha anyadekam udaharanam pashyamaha. Vaidehyaha iti padamasti. Vaidehi nama sita, sitayaha ityarthaha. Tatra vaidehyaha iti padam. Etat padam pashyamaha chet. आदौ वैदेही इति प्रकृतिः, ततः नस् इति प्रत्ययः अस्ति. सो यद्यद् नीलवर्णे अस्ति सा प्रकृतिः, रक्तवर्णेन निर्दिष्टः प्रत्ययः. वैदेही इति प्रकृतौ पुनः वैदेह इत्यस्ति नीप् इति प्रत्ययः अस्ति. वैदेह इत्यत्र विदेह इति प्रकृतिः अस्ति, अण् इति प्रत्ययः अस्ति. पुनः विदेह इत्यत्र वि देह इति प्रकृतिद्वयम् एवं प्रत्ययद्वयम्. देह इत्यत्र पुनः दिह् इति प्रकृतिः, अच् इति प्रत्ययः. सो बेसिकली वी हाव् त्री कम्पोनेंट्स्, वि इति प्रकृतिः, दिह् इति प्रकृतिः. एतत् प्रकृतिद्वयम् आश्रित्य वैदेह्याः इति रूपं साधितं बहूनां प्रत्ययानां योजनेन. सो एस् यू केन् सी मल्टिपल् लेवल्स्. आदौ दिह् इत्यस्मात् देह, सो देन् वि एण्ड् देह कम्बैन्ड् टु फार्म् विदेह. ततः एकः प्रत्ययः, इट् बिकम्स् वैदेह. अगेन् अनदर् प्रत्यय, इट् बिकम्स् वैदेही. अगेन् याड् अनदर् प्रत्यय, इट् बिकम्स् वैदेह्याः. सो वस्तुतः संस्कृते व्याकरणज्ञानं प्रकृतिप्रत्ययज्ञानम्. का प्रकृतिः, कः प्रत्ययः, कथं भवति. सो वाट् वि स्टडि इन् व्याकरण स्पेसिफिकलि इस् अबौट् दीस् वर्ड्स्. वाट् आर् द डिफरेण्ट् कैण्ड्स् आफ् वर्ड्स्, हौ डु वि गेट् देम्, हौ डु वि डिरैव् देम्. दट् इस् वाट् वि काल् निष्पत्ति आर् डिरैवेशन्. सो हौ आर् यू गेटिङ्ग् दीस्? सो यदि वैदेह्याः इति कुत्रापि शब्दकोशे वैदेही इति पदं पश्यन्ति तर्हि ते वदन्ति विदेहस्य विदेहे भव इति वैदेही, आर् समथिङ्ग् विच् विल् गिव् यू द प्रकृति एण्ड् द प्रत्यय पार्ट् आफ् इट्. पदं द्विविधं भवति. अत्र दृष्टं सर्वविधमपि पदम् एवं भवति, प्रकृतिः प्रत्ययः इति. तत्र पदं द्विविधमेव भवति. वस्तुतः संस्कृते पदं द्विविधम् एव. देर् आर् ओन्ली टु कैण्ड्स् आफ् वर्ड्स् इन् संस्कृत. एकं तिङन्तम् अथवा क्रियापदम् इत्युच्यते, अपरन्तु सुबन्तम् अथवा नामपदम् इत्युच्यते. एतद्वयम् अतिरिच्य किमपि पदं नास्ति. सो एनी कैण्ड् आफ् वर्ड् वि सी इन् संस्कृत इस् वन् आफ् दीस्. ओके, एनिथिङ्ग् 100% इस् कवर्ड् अण्डर् दीस्. अव्ययं वा भवतु, अन्यत् किं वा भवतु, सर्वमपि अत्रैव अन्तर्भवति. अव्ययानि अपि सुबन्तानि एव. अतः तिङन्तं सुबन्तम् इति द्विविधं पदं भवति. तत्र तिङन्ते धातुः प्रकृतिः, तिङ् इति प्रत्ययः. अत एव तिङ् अन्तम्, यस्य अन्ते तिङ् प्रत्ययः अस्ति तत् पदं तिङन्तम् इत्युच्यते. सर्वत्र तिङन्ते धातुः प्रकृतिः, तिङ् प्रत्ययः. यद्यत् क्रियापदस्य उपयोगं कुर्मः, पठति, अपठत्, पठिष्यति, पठेत्, पठतु इत्यादि, तानि सर्वाणि अपि तिङन्तानि इति उच्यन्ते. सुबन्तम् अस्ति. सुबन्ते प्रातिपदिकं प्रकृतिः, सुप् इति प्रत्ययः. सुप् अन्ते यस्य, तत् सुबन्तम्. अतः सुबन्तं नाम नामपदम्. सो दे आर् नौन्स्. तिङन्तस् आर् द वर्बल् फार्म्स् एण्ड् सुबन्तस् आर् द नौन् फार्म्स्. सो सुबन्ते या प्रकृतिः, तस्य प्रातिपदिकम् इति नाम. सो धातु एण्ड् प्रातिपदिकम् आर् द टु रूट् वर्ड्स्. सो धातु इस् अ वर्बल् रूट्, प्रातिपदिकम् इस् अ नामिनल् स्टेम् इत्युच्यते. तदेव सुबन्तस्य प्रकृतिः प्रातिपदिकम्, तिङन्तस्य प्रकृतिः धातुः. प्रातिपदिकात् सुप् प्रत्ययं कुर्मः, यथा रामः रामौ रामाः, नदी नद्यौ नद्यः इत्यादीनि सुबन्तानि, नौन् फार्म्स् इति उच्यन्ते. अतः धातोः तिङ् प्रत्ययस्य योजनेन तिङन्तं भवति, प्रातिपदिकात् सुप् प्रत्ययस्य योजनेन सुबन्तं भवति. इदानीं धातुं पश्यामः चेत्, सो नार्मली वी नो वट् इस् अ धातु. यथा पठ् इति धातुः, लिख् इति धातुः, वन्द इति धातुः. सो पठति, लिखति, वन्दते. नृत् इति धातुः, नृत्यति इत्यादीनि भवन्ति. किन्तु तदेव न, धातुः त्रिविधः भवति. सो देयर आर थ्री काइंड्स ऑफ धातुस् एक्चुअली. केवल धातुः इति कथ्यते. सो दीज आर द नॉर्मल सिंपल धातुस्, ओके, द वन्स विच वी सॉ नाउ. प्रायेण यानि क्रियापदानि उपयुज्यन्ते, गच्छति, तिष्ठति, भवति, अस्ति, पठति, लिखति, सर्वत्रापि केवल धातुः. अत्र पठ इति धातुः, ति इति तिङ् प्रत्ययः, योजनेन पठति इति पदं भवति. प्रकृतिः प्रत्ययः पदम्. एते केवलधातवः 2000 सन्ति, अप्रोक्सिमेट्, नाट् द एक्साक्ट् नम्बर्. देर् आर् अराउण्ड् 2000 धातुस् धातुपाठे पठिताः. सो वी हेव् ए लिस्टिङ्ग् आफ् धातुस् काल्ड् द धातुपाठः. धातुपाठ इस् जस्ट् ए लिस्टिङ्ग् आफ् धातुस् वित् देर् मीनिङ्ग्स्. So the number of these dhatus is limited. It is around 2000, and these are the major root forms of Sanskrita. Sanskrite prayaha sarvesham api shabdanam padanam dhatuhu kevala dhatuhu eva moolam. So these 2000 words form the foundation of Sanskrita language. Okay. So dhatu pathaha ityasti tatra prayena 2000 dhatavaha पठ्यन्ते. पठ, गम, कृ इत्यादयः धातवः सन्ति. एतेभ्यः धातुभ्यः तिङ् प्रत्ययं योजयामः, तदा तिङन्तं भवति. बट् दिस् इस् ओन्ली वन् कैण्ड् आफ् धातु. सनाद्यन्तधातुः इत्यपि अस्ति. यथा चिकीर्ष इति धातुः अस्ति, ति इति तिङ् प्रत्ययः, चिकीर्षति इति पदम्. सः अर्थः कर्तुम् इच्छति. हि विशस् टु डू समथिङ्ग्. सो आङ्ग्लभाषायां विशस् टु डू समथिङ्ग् इति बहुभिः पदैः वक्तव्यम्. संस्कृतभाषायां तु एकेनैव पदेन उच्यते. सो अ सिङ्गल् वर्ड् रेप्रसेण्ट्स् द होल् मीनिङ्ग्. कर्तुम् इच्छति इत्यर्थे चिकीर्षति इति पदम्. तत्र धातुः अस्ति चिकीर्ष इति, ति इति प्रत्ययः. नौ दिस् धातु इस् नाट् इन् दट् लिस्ट्. ये 2000 धातवः तत्र नास्ति. तर्हि किं भवति, अत्र पुनः प्रकृतिः प्रत्ययः अस्ति. सो दिस् इस् ए डिरैव्ड् धातु. यः केवलधातुः अस्ति, तस्मात् धातोः केचन प्रत्ययाः योज्यन्ते. सो द ओरिजिनल् धातुस् टु दोस् वि आड् सम् प्रत्ययस् काल्ड् सनादि. सन् इत्यादयः प्रत्ययाः सन्ति, तेषां योजनेन पुनः धातुः भवति. सो अ धातु प्लस् अ फ्यू प्रत्ययस् विल् गिव् यू अनदर् धातु. सो वी हेव् द ओरिजिनल् धातुस् एण्ड् देन् वी हेव् दीस् सेकेण्डरी धातुस्. ओके, सनाद्यन्तधातवः इति. यथा पाठयति, पठति, पाठयति, गच्छति, गमयति, नृत्यति, नर्तयति, टु मेक् सम्बडि एल्स् डू द एक्शन्. एते धातवः, तत्र णिच् इति प्रत्ययः भवति. एवं कर्तुमिच्छति चिकीर्षति, पठितुम् इच्छति पिपठिषति, गन्तुम् इच्छति जिगमिषति इत्यादिषु सन् इति प्रत्ययः. एवं पुनः पुनः पठति इत्यर्थे पापठ्यते, पुनः पुनः वन्दते इत्यर्थे वावन्द्यते इत्यादि यङ्. सो देर् आर् अ सीरीस् आफ् प्रत्ययस् विच् आर् यूस्ड् टु डिरैव् धातु फ्रम् धातु. सो केवलधातुः भवति, तस्मात् सनाद्यन्तधातुः अपि भवति. दिस् इस् द सेकेण्ड् कैण्ड् आफ् धातु. नामधातुः इत्यपि भवति. नामधातुः नामपदात् धातुः. वि हेव् नामिनल् फार्म्स् अ नौन्. सो फ्रम् अ नौन् we get a verb. Okay, putram atmanah icchati, he who wants to have a son or a child. Putriyati ityasti, tatra putriya iti dhatuh, tasmat ting pratyayah putriyati iti tingantam. Okay, tatra subantam you have the noun form, tasmat kechana pratyayaha bhavanti. Actually, these are also the sanadyanta pratyayas. So, this is also a sanadyanta dhatu. But the differentiation is only to show the source. Okay. So, you have the original dhatus. We have dhatus derived from other dhatus. You have dhatus derived from subantas. Okay. So, there are three kinds of dhatus. Subantepyaha putra iti subantam putraha. Putram atmanaha icchati ityarthe putriyati iti dhatuhu. I mean putriya iti dhatuhu putriyati iti tingantam. Similarly putra kamyati ityadi bhavati. Okay. So tingantam, tingante mulam dhatuhu, pratyayaha ting, dhatuhu trividhaha bhavati. Kevala dhatuhu, sanadyanta dhatuhu, nama dhatuhu iti. Subantam pashyamaha, subante మూలం ప్రకృతి భవతి ప్రాతిపదికం ప్రాతిపదికాత్ సుప్ ఇది ప్రత్యయాః భవంతి ప్రాతిపదికం కతివిధం ఇది పశ్యామః సో యథా కేవల ధాతుః తథా కేవల ప్రాతిపదికం ఇత్యస్తి సో ప్రాతిపదిక విచ్ యు కెనాట్ బ్రేక్ ఫర్దర్ సో దిస్ కేవల ధాతు యు కెనాట్ బ్రేక్ ఫర్దర్ ఓకే పూర్వం దృష్టం పశ్యామః చేత్ ఐ జస్ట్ గో బ్యాక్ టు ద ప్రీవియస్ స్లైడ్. The final step is a dhatu. Dih iti dhatuhu. You cannot break it further. Similarly, if you go here, krita. So, kr is a dhatu. You cannot break it further. So, we can keep on making this prakriti, pratyaya, till we reach the level of the dhatu. Dhatuhu punaha vibhaktum na shakyate. Because it is already given ready-made in that list of 2000, you cannot break it further. The kevala dhatu, you cannot break it further. So, sanadyanta dhatu, as you saw, we can break it into dhatu plus pratyaya. So, nama dhatu subantam plus pratyaya iti vibhagaha bhavati. But the main root is actually dhatu. Atayeva tasya root iti nama vastutaha tadeva mulam bhashayaha. Evam pratipadike api kevala pratipadikam iti bhavati. Which you cannot break it. Yatha ditha iti kasyachit nama. It is a name which does not mean anything. Okay, a name which does not mean anything. If it is a meaningful name, which is the usual case, we can still break it. Samanyataha kevala pratipadikam iti bhavati. Tasmat supratyaye krate subantam. Okay. So these are avyutpannani shabdaswarupani iti uchyante. For those for which we do not have a derivation. They are basic. Kintu etesham list nasti. Yatha kevala dhatunam suchi asti. Ete eva kevala dhatavaha. Tatha kevala pratipadikanam nasti. There is no limited list of kevala pratipadikas. So we will come back to that later. Okay. They are very less. Vastutaha samskrite kevala pratipadikani atyantam nyunani. Okay, very very less, very very limited pratipadikas are only pratipadikas which you cannot break further. Okay. Dvitiyam pratipadikam asti kridantam. Okay. Vastutaha asmabhih adiyamanam kridantam api pratipadikam. It is a kind of nominal stem. Yatha rama ityasti kridantam pratipadikam tasmat sup iti pratyaye krite ramah. Iti padam bhavati. Kridantam katham bhavati. Dhatuhu asti. Dhatohu krit iti pratyayaha santi. Etesham yojanena kridantam bhavati. Okay. So, kridanta is a kind of pratipadika which you are deriving from dhatu. Dhatohu krit pratyayasya yojanena kridantam bhavati. Kridantam pratipadikam. Okay. We have a third kind of pratipadika which is called taddhitantam. Okay. Taddhitantam ityapi ekam pratipadikam. Yatha dasharathi ityasti. The color is wrong. Sorry, this should be purple. Because dasharathi iti pratipadikam. Tasmat supratyaye krite dasharathihi iti bhavati. So, taddhitantam katham bhavati. Subantam, you have a noun already. Dasharatha iti subantam asti. Dasharatha iti. Tasmat, taddhita iti pratyayaha bhavanti. तदा प्रातिपदिकं भवति तद्धितान्तम्। कुन्तेः अपत्यं कौन्तेय इति प्रातिपदिकम्। धनम् अस्य अस्ति, धनम् इति सुबन्तम्, तस्मात् प्रत्यये योजिते धनवत् इति प्रातिपदिकं भवति, धनवान् इति सुबन्तम्। एवं जनता, जनानां समूहः, जनानाम् इति सुबन्तम्, तत्र समूहार्थे प्रत्यये जनता इति प्रातिपदिकम्। सो तद्धितान्त इस् अनदर् कैण्ड् आफ् प्रातिपदिक। समासः भवति सीतापति इति प्रातिपदिकम्, सीतायाः पतिः सीतापतिः, तत्र सु इति प्रत्ययः, सीतापतिः इति सुबन्तम्। द्वयोः सुबन्तयोः योजनेन समासः भवति। सो द समास कैण्ड् आफ् प्रातिपदिक इस् डिरैव्ड् बै जायिनिङ्ग् टु सुबन्तस्। गज आनन, गजाननः, राज्ञः पुत्रः राजपुत्रः। सो इन् आल् दीस् केसेस् यु सी टु सुबन्तस्, देर् इस् गजम् गजः आननम्, राजा राज्ञः पुत्रः, राधा कृष्णः। एवं सुबन्तद्वयस्य योजनेन समासः भवति। सो सुबन्त इस् द रूट् इस् प्रातिपदिक। देर् आर् फोर् कैण्ड्स् आफ् प्रातिपदिक। वन् इस् अण्डिरैव्ड् प्रातिपदिक, केवल प्रातिपदिकं, कृदन्तं, तद्धितान्तं, समासः इत्येवं चतुर्विधानि प्रातिपदिकानि भवन्ति। ओके, सो वी विल् सी दिस् अगेन्। पदं द्विविधं भवति, तिङन्तं सुबन्तम् इति। तत्र धातुः तिङन्तस्य मूलं, सो द रूट् आर् द प्रकृति फार् तिङन्तम् इस् आल्वेज् अ धातु। सुबन्तस्य प्रकृतिः प्रातिपदिकं, सो द रूट् आफ् अ सुबन्त इस् आल्वेज् प्रातिपदिकम्। सो धातोः तिङ् प्रत्ययस्य योजने तिङन्तं भवति, प्रातिपदिकात् सुप् इति प्रत्ययस्य योजने सुबन्तं भवति। ओके, दीस् आर् योर् टु मेन् वर्ड्स्, verb forms or noun forms. So verb forms we get by adding ting to any dhatu. As we saw, there are different kinds. So again, subanta we derive by having adding sup pratyayas to any kind of pratipadika. So these are not independent categories. So dhatoho krit pratyayasya yojanena pratipadikam bhavati. So we are converting a dhatu to a pratipadika by adding krit pratyaya. So a dhatu can be converted into another dhatu by adding the sanadi pratyayas. Okay, so we saw the sanadyanta dhatu. So one dhatu pat is a dhatu, you add a pratyaya nit, it becomes pathi, which is again a dhatu. Okay, so which is through addition of pratyayas called sanadi pratyayah. Dhatoh aparaha dhatuh bhavati, subantad api dhatuh bhavati यथा पुत्रीय। सुबन्तात् सनादि प्रत्ययानां योजनेन अपि धातुः भवति। सो यु हेव् ओरिजिनल् धातु, यु हेव् धातु गेटिङ्ग् कन्वर्टेड् टु धातु, एण्ड् सुबन्त गेटिङ्ग् कन्वर्टेड् टु धातु। सो प्रातिपदिकं कथं भवति? धातोः प्रातिपदिकं भवति, सुबन्तात् प्रातिपदिकं भवति तद्धितप्रत्ययानां योजनेन। सो यु हेव् तद्धित विच् विल् कन्वर्ट् सुबन्त to pratipadika, and you have samasa which will convert also subanta, multiple subantas rather, into pratipadika. Okay, so if you look at these, all the red ones are pratyayas, they are achieving the interconversion. Okay, you cannot convert subanta directly to tinganta, you have to come to the root. Okay, you convert subanta to pratipadika and then you get another subanta. So you can go ataddhita back to subanta, or you can go to dhatu and tinganta, or you can go to subanta samasa, do a pratipadika and come back to subanta. So dhatu, you can go to tinganta, you can go to pratipadika and subanta, you can go to another dhatu and tinganta, or so on. Okay, you can move in the direction of the arrows. Okay, so this is actually, this will cover all kinds of words in Sanskrita. So knowing Sanskrita is knowing all this, knowing kridantas, tadhitantas, samasas, subantas, tingantas, the sanadyantas. Okay. So there are other things like sandhi or natva, but they are mainly just changing the letters. Okay. At the level of words, this is all we have. Okay. Of these also, there are three steps which are very basic. Okay. As you can see, samasa you can do only once you have two ready subantas. Yadi subantam nasti, tarhi samasaha na shakyate. So we will take it up for now. So these sanadis are, you know, the secondary level of constructions. From dhatu you get another dhatu, or from subanta you get a dhatu. So they are also removed. And then tadhita also you can get only once you have a subanta. If you remove that, you have dhatu, tinganta, pratipadikam, subanta, and dhatu giving rise to a pratipadika. Okay. So this conversion is what we are looking at now, called the krut. So krut are pratyayaha yena dhatuhu pratipadikam bhavati. You are deriving pratipadika from dhatu, and this conversion gives you 95% of pratipadikas in Sanskrita. At least that. It's just an estimate. So actually there are people who say 100% of pratipadikas are derived from dhatus. Sarvam nama dhatu jamaha. So the conservative view is that all pratipadikas are derived from dhatu by adding krut pratyayas. Okay. So even if you admit the presence of some underived pratipadikas, 95% of our pratipadikas are derived from krut pratyayas. So that is why krudantas are a very, very important part of Sanskrita language, because most of our noun forms come this way. You have dhatu to pratipadika to subanta. Yatha ramaha ityasti, ram iti dhatuhu, tasmat ghai iti krut pratyayaha, so you get rama iti pratipadikam. So pratyaye krute ramaha ramau ramaha. Patham, path iti dhatuhu, tasmat ghai iti pratyayaha, you get patha. Tasmat supratyaye pathaha pathau pathaha patham, patitavan, so again path iti dhatuhu, or likhitavan, likh iti dhatuhu, tasmat ktavatu iti krut pratyayaha, you get pratipadika likhitavat, so you take that to subanta, you get likhitavan, likhitavantau, likhitavantaha. So majority of the words we see can be derived this way. So you go to a dhatu, to pratipadika and to subanta. Those are the krudantas. Okay. So as I said, this 95%, somebody has asked, there is a question. So there is something called unadi. So within the krut pratyayas, there are two kinds. One are the pratyayas which are directly given by Panini, which we call the krut pratyayas. So Panini specifically says, okay, this is the dhatu, this is the pratyaya you add, and you get the pratipadika. There are also another set of pratyayas called the unadi pratyayas. So they are also added to dhatus to get these pratipadikas. Say for example, you have a word like gauhu. Go is a cow. Okay. So there again we derive it from gam dhatu, gachati iti gauhu. So there you have gam and you have a pratyaya called dos. Okay. Such pratyayas are called unadis. Now regarding unadis, there are two views. One view is that the unadis are, I mean, we accept the derivation of unadis from dhatus, then 100% of, or at least 99% of pratipadikas will be dhatu derived. Okay. So if we don't accept the derivation of unadi, some people consider that, okay, it is pointless to go further than go. Why should it be split? Okay, they take go as the ready-made form, which is the kevala pratipadika. So that is why in the previous list I had included go, which is contentious. So some people accept those also as derived, whereas some people do not. So whether we accept such unadis or not, even otherwise the number of krudantas is very, very high in the language. Okay. So what are krudantas? now basically coming to the focus of this. So krit iti pratyayaha. Krit is the name given to a set of pratyayas. What does a krit pratyaya do? It converts a dhatu into a pratipadikam. Ashaha kridantaha dhatuhu ityasmat krit pratyayasya yojanena kridantam bhavati. Dhatohu dhatuhu prakritihi krit iti pratyayaha yojanena kridantam bhavati tacha pratipadikam. So kridantas are always pratipadikas. You cannot use kridantas directly, okay, because it has to be further converted. So kridantat yada sup iti pratyayaha kriyate tada subantam nama padam. It is only these green ones which we can actually use in the language. The intermediaries are all, they cannot be used. You can use only a ready-made tinganta or a ready-made subanta. Subantasya upayogaha bhavati athava tingantasya. Taha kridantaha pratipadikam bhavati tasmat supratyaye krite subantani bhavanti. Ataha kridantebhyaha subantam bhavati. Ataeva ramaha ramau ramaha. Rama iti kridantam. Tasmat pratyayeshu kriteshu ramaha ramau ramaha. Evam patitavan patitavantau patitavantaha ityadini subantani bhavanti. So kridantaha pratipadikam. So ete amshaha nyatavyaha krit iti pratyayaha. Kechanchana pratyayanam nama. It is just the name to a set of pratyayas defined by Panini in his Ashtadhyayi. Panini na Ashtadhyayam krit iti pratyayaha uchyante. Krit ante yasya saha kridantaha. Kridantaha namakaha yasya shabdasya ante krit pratyayaha bhavati saha kridantaha ityuchyate. So ete krit pratyayaha dhatubhyaha bhavanti. Sarvada dhatuhu dhatohu krit iti pratyayaha bhavati. Kridantaha pratipadikam. So all kridantas are pratipadikas. Kridantanam pratipadikam iti samnya bhavati. Kridantebhyaha sup pratyayasya yojanena subantaha bhavanti. So once you have the kridanta, tebhyaha sup pratyayaha kriyante, ataha subantaha bhavanti. So kridanta is the intermediate step in converting a dhatu to a subanta. Okay. Idanim krit pratyayaha. Pratyayanam vishaye janimaha. Etohi kridantaha nama pratyayasya jnanam bhavet. Tatra krit iti prayaha 140 pratyayaha santi. Okay. So the number of krit pratyayas as given in the Ashtadhyayi is approximately 140. It's not an exact number. Around that 130 to 140. So there are different views. Around that prayaha tavantaha pratyayaha dhatubhyaha bhavanti bhinneshu artheshu bhavanti. So what do these pratyayas do? Why do we add pratyaya? Kimartham pratyayaha yojyate ityukte pratyayena arthaha budhyate. So these pratyayas are added in specific meanings. Udaharanani pashyamaha. Karta ityarthe. Karta means the one who does action. So etat smartavyam krit pratyayaha dhatubhyaha bhavanti. Ataha sarvatra kriya bhavati. Adhatu is a kriya vachaka. Dhatavaha kriyam bodhayanti. Adhatu is something which tells you an action. Yatha path, likh, vand, ityadi. Yada krit pratyayaha yojyate, tada karta, the person who performs the action, ityarthaha bhavati. Yatha pach iti dhatuhu. Kahartaha pachanam nama cooking ityarthaha. So the person who does the act of cooking is called pachakaha. Yaha pakakaryam karoti saha pachakaha. Evam yaha vadati, he who speaks is vakta. Yaha gachati, bhutakale gamanakaryam kritavan saha gatavan. So ete sarvepi kartaram bodhayanti. So they represent the person who does the action. So how do we get that meaning? We get that meaning by the pratyaya. Atra pach iti dhatuhu, aka iti pratyaya asti. Saha katasya kaha arthaha, karta ityarthaha. He who does cooking is pachaka. He who does speaking, he who speaks is vakta. He who goes is gatavan. Evam karta ityarthe kechana krit pratyayaha bhavanti. Karma, the object of action, ityarthe api pratyayaha bhavanti. Yatha pathita, pathaha pathitaha. Ramayanam pathitam. Bhagavad Gita pathita. So the word pathita does not refer to the person. It does not tell who reads. It tells what is read. Kim pathitam? Ramayanam va, Bhagavad Gita va, kridantaha pathitaha. Vyakaranam pathitam. So it refers to the object. So that is because of the pratyaya. The dhatu is the same. Path. So if you are saying pathitavan, Ramaha pathitavan, aham pathitavati, sa pathitavati. So pathitavan will refer to the person who does it, whereas pathita will refer to the object. So the change there is because of the pratyaya. So pratyaya can tell you that it is the object. Evam khadyam, phalam khadyam, annam khadyam, odanaha khadyaha, yavaguhu khadya. So what is to be eaten? Okay, so that is again given by a different kind of pratyaya. So krit pratyayas can give you the meaning of karta, the person who does an action, karma, the object of action, or they can tell action itself. Bhavaha athava kriya api uchyate. Yatha kritihi. Kritihi means doing. Gatihi means going. Bubhuksha. Bhoktum ichha. It is to desire to eat. So kriya api bodhyate. So it can indicate the person who does, the object, action itself, or kriyanam paraspara sambandhaha. It can give you interrelation between kriya. Yatha kritva, it means having done something, you move on to another kriya. So it gives you the first action. The kthva is the suffix. Kartum gachati, it gives you the purpose. One action is the purpose of another. Evam kriyanam paraspara sambandhaha arthaha bhavitum arhati. So you don't have to remember all these. These are just examples of what kritpratyayas do. It is not a exact list. Ete eva arthaha iti na, etadrishaha arthaha bhavanti. Kim kriyate krit pratyayena iti cheta. Etadrishaha arthaha krit pratyayaihi jnayante. So, there is a question. Bubhuksha is a noun. All these are nouns, not just bubhuksha. Kritva is also a noun. Kartum is also a noun. Atra yadyad uchyate tat sarvam api noun. That is exactly what we saw. Krit pratyaya helps in converting an action into a noun. Okay. So let's go back. Dhatuhu represents action. You convert it into kridanta and you convert it into a namapada. So any kridanta, you use it as namapada. It is a noun which still has a portion of an action. Even gatavan is a noun. It has an action with it. Pachakaha is a noun. It has an action because there is a dhatu. So that is exactly what we are doing. That is why the conversion is almost magical. You have a dhatu which represents an action. You add a pratyaya and you convert it into a noun. So the noun will have a portion of the action. So it will tell you who does the action or with what. Or what is the object of action? Something related to action. Okay. So all these are nouns. Atra yadyad uttam tat sarvam api subantameva. That is exactly what the kridanta does. It converts an action or a kriya into a noun form through some relation. So that could be either karta or karma or kriya itself. Even though these say kriya itself, these are all nouns. All kridantas end up being nouns. No exception. So kriyanam paraspara sambandha uchyate etanyapi subantani. So there are specific meanings such as doing something again and again. Karam karam iti kridantam. It means doing it again and again. So darsham darsham, seeing something again and again. So certain specific meanings are also given by kridantas. So ete krit pratyayaha bhinneshu artheshu bhavanti. So prayaha chatvarimshadadhika shatam pratyayaha santi dhatubhyaha bhavanti bhinneshu artheshu bhavanti krit pratyayaha. Not all krit pratyayas are added to all dhatus. Yadyapi 140 ityachyate sarvebhyaha dhatubhyaha ete bhavanti iti na. So some krit pratyayas are general. Sarvebhyaha dhatubhyaha bhavanti. Some are specific. Asyaiva dhatohu ayam pratyayaha bhavati iti ubhayam api asti. So there are general krit pratyayas and there are specific krit pratyayas. So krit pratyayanam vibhagaha artham anusritya, based on meaning. So we have kartari, means the pratyayas which give the agent or the person who does the action. So bhave, bhave nama kriya, so that just give action. Bhute, so there are some which give you the sense of the past tense. So vidhyadishu, there are some which tell something that has to be done. Karaniyam, kartavyam, karyam, that which should be done or that which deserves to be done, etc. So don't worry about this division, we will learn all these. So these are the major pratyayas which we'll be studying in this course. Okay, what we are doing in this course is we will be studying around 25 major krit pratyayas. Krit pratyayaha 140 samipe santi sarve krit pratyayaha asmabhihi na adhiyante. Pramukhaha krit pratyayaha samanyaha krit pratyayaha, and most of these are general pratyayas. Sarvebhyaha dhatubhyaha nul bhavati, trich bhavati, shatru athava shanach bhavati ityevam samanyaha ye krit pratyayaha atyantam prasiddhaha. All these krit pratyayas are very very common in usage. What we are studying now are the major krit pratyayas which are frequently used and which are general, which can be usually added to all the dhatus. Tadrishaha pratyayaha asmabhihi asmin varge adhiyante. Anyepi santi kridanta avyayani yathaktva lyap tumun namul ityadi upapada kridantaha iti santi. So the general idea is these pratyayas are what we'll be studying. Don't worry about the specifics now. So this is just a list of pratyayas. Kim pathamaha etesham vishaye, kim kim pathyate, udaharanani katham etesham kridantanam prayogaha bhavati, kaha arthaha tasya kridantasya kaha arthaha, kaha pratyayaha kaha dhatuhu pratyayaha prakriti pratyaya vibhagaha, kebhyaha dhatubhyaha saha pratyayaha bhavati, katham kridantam kridanta rupam katham bhavati yatha path ityasti nul iti pratyayaha pathanam iti bhavati, likha ityasti chet lekhanam iti bhavati natu likhanam, evam gachati ityasti chet gamanam iti bhavati natu gachanam, evam katham kridanta rupam bhavati. So how do we get those forms? Tesham subanta rupam kim, as we said, we cannot use only kridanta, you have to convert it into a subanta. That is easy. Most of them happen to be akarantas, but there are some which are different. So abhyasaha, we will do lots of exercises for using these kridantas in sentences. So focus is on practice. Prayoga niyamaha, kechana niyamaha katham, kasmin kasyam vibhaktau prayoktavyam ityadi kechana niyamaha api adhiyante. Ayameva vargasya ashayaha. Okay. So this is the prelude to understanding kridantas. Do you have any questions with what we did? We understood what is a kridanta. So specific kridantas we will be studying further. So if you have any questions, you can raise your hand or you can type it out. Shobha?
5% remaining asti kila tat sarve kevala pratipadikani va
tatha uchyante yatha dittha davittha ityadi namani. So there are some names which you cannot derive. So tani kevala pratipadikani satyam. So 95% are kridantas. 95% of pratipadikas derived from kridantas, I mean from dhatu by adding krat pratyayas. So anye kevala pratipadikani athava avyutpannani. Yes,
tadeva unadi pratyayava
tadeva. If you add unadis, it will probably go down to 90% or something. So it's because unadis are quite few in number. Okay, so unadi
udaharanam
yatha gauhu ityasti. The word go is derived as a unadi pratyaya. So there are many, say, you have words like vadhuhu, the word vadhu, which means a bride or a wife. Tatrapi unadi pratyaya asti. Vahadhatoho, she say, ya vahati, she who carries the kula with her is vadhuhu. So vah iti dhatoho, kashchit unadi pratyaya. So lakshmi hi. So lakshmi is again laksh iti dhatuhu, tatra mut iti pratyayaha. So many of these we derive as unadis. Okay.
Avagat. Dhanyavada.
Okay. So there are some typed questions. I'll come to them. Sunish Mohode, you have a question.
Yeah, Hari Om. Yada bhavatya uktam tatra pradipadikasya sakshat upayogah na bhavati iti. Kintu sambodhana vibhakti rupam pradipadikavat eva asti khalu. Udaharanartham Rama shabdasya Rama iti eva asti khalu.
Rupam tatha bhavati, kintu rupe vyatyaya bhavati iti na, kintu tatrapi pratyayah asti. Pratyayam vina kartum na shakyate. Pratyayah bhavati, pratyayasya lopaha kriyate. Rama ityatra su iti pratyayah kriyate lopaha. Ata eva kvadachit bhedaha bhavati, yatha lakshmihi shabdasya he lakshmihi ityeva. Tatra pratipadikam na bhavati sambodhane api. अतः तत्रापि प्रत्ययः अस्ति. अव्ययेषु अपि प्रत्ययः अस्ति, तस्य लोपः क्रियते. अत एव रूपे भेदः नास्ति, किन्तु अव्ययानि अपि सुबन्तानि एव. यतोहि पदं विना यदि सुबन्तं तिङन्तम् इत्येव पदं, यदि न पदं तर्हि प्रयोगः कर्तुं न शक्यते. अतः सर्वत्रापि प्रत्ययः भवति, कदाचित् न दृश्यते. सो सम् केसेस् वी डु नाट् सी द प्रत्यय, बट् इट् इस् स्टिल् देर्.
अस्तु, धन्यवादः.
अत्र केचन प्रश्नाः सन्ति, तेषां हा सो प्रश्नं पठित्वा उत्तरं ददामि. इन् आल् सेण्टेन्सेस् वित् कृत् प्रत्यय केन् वी एड् वर्ब्स् इफ् वी वाण्ट् लैक् अस्ति. प्रश्नस्य आशयः कृदन्ताः नामपदानि तत्र क्रियापदं नाम तिङन्तं भवति वा? भवत्येव. यतोहि अस्माकं सिद्धान्ते सर्वेषु वाक्येषु तिङन्तं भवत्येव इति सिद्धान्तः. अतः कृदन्ताः सर्वेपि नामपदानि, अतः कृदन्त तिङन्तं भवति. सो यथा अस्ति, सः वृक्षः इत्युक्ते सः वृक्षः अस्ति इत्येव अर्थः. एवमेव सः पाचकः अस्ति इत्यादि सर्वत्र अस्ति इति क्रियापदम् अध्याह्रियते, अध्याहारः इत्युच्यते. सो वी टेक् इट् टु कम्प्लीट् द मीनिङ्ग् आफ् द सेण्टेन्स्. सो वाट् इस् द एक्साक्ट् नम्बर् आफ् धातुस् इन् अष्टाध्यायी? वक्तु. अष्टाध्याय्यां धातवः न सन्ति, अष्टाध्याय्यां सूत्राणि एव सन्ति. धातुपाठः इति अस्ति, तत्र धातवः. द एक्साक्ट् नम्बर् इस् नाट् डिटर्मिनबल्, यतोहि धातुपाठे पाठभेदाः सन्ति. सो कस्मिंश्चित् धातुपाठे धातुसङ्ख्या भिन्ना भवति, अन्यस्मिन् भिन्ना भवति. So there are pathantaras, what we call variations. Because dhatupathas are derived from, you know, tradition through thousands of years, we have variations. So we cannot tell the exact number of dhatus. Around 2000. 2200, it will go from 1900 something to 2200 something. So there is a wide range depending on which version you are following. Kati unadi pratyayaha santi ityapi asti tatrapi pathabhedaha santi. So there are different unadi vrittis, dashapadyunadi vrittihi, panchapadyunadi vrittihi, etc. So their number will also change. You cannot have an exact. The only thing is krut pratyayaha sakshad ashtadhyayam vihitaha ataha tesham sankhya vaktum shakyate. So there again. So krutya pratyayaha asya arthaha kaha iti kena chitta prishtam. So krutya pratyayas are a particular kind of kridantas. We will see them when we come to krutya pratyayas. We will study krutya pratyayas. So tada jani maha. Anyaha prashnaha. Ramaha gachati. Do both words have tingantam and pratyaya? Both are not tingantas. Gachati iti tingantam. Tatragam iti dhatuhu ting iti pratyayaha. Ramaha iti subantam. Tatra rama iti pratipadikam. Sup iti pratyayaha. Ramaha subantam. Gachati iti tingantam. Kintu dhatuhu ubhayatra asti. Ramaha ityatrapi ram iti dhatuhu asti. Ramadhatoho ghai pratyayaha kriyate, rama iti pratipadikam bhavati, tasmat supratyayaha kriyate, ramaha iti subantam. So it is not a tingantam, both are derived from dhatu, but both are not tingantas. Ramaha iti subantam, gachati iti tingantam. Ubhayatra prakriti pratyaya vibhagastu asti. Anyaha prashnaha. I have understood that some unadi pratyayas are krut. Can I say that all unadi pratyayas are krut pratyayas? Yes. Paninehe sutre unadayo bahulam iti sutram asti. So he says unadis bahulam as they are defined. So Panini does not list unadis, but he does mention unadis. Ataha sarvepi unadayaha. Yadi unadinam vyutpannatvam angikriyate. So if we accept that unadis are derived, then they are all kridantas. Yes, all unadis are kridantas. Because you are having dhatu, dhatoho pratyayaha kriyate, pratipadikam labhyate, sarvepi unadayaha kridantaha eva. Taddhita pratyayanam kutrapi suchi astiva. Are the taddhita pratyayas listed anywhere? Yes, taddhita pratyayaha ashtadhyayam sakshad uchyante. So taddhita prakarana is one of the biggest prakaranas of the ashtadhyayi. Tatra paninina eva sarvepi taddhita pratyayaha uktaha santi. Adhyayanaya kimapi pustakam apekshitam va iti prichyate asya vargasya. See, specifically for this, no. There is no prescribed book that we will be following. Asya vargasya adhyayanartham anyat pustakam iti napekshyate. Asmabhihi yadyad adhiyate tat maya slide dvara prastuyate. Abhyasadikam api diyate. Ataha adhyayanartham iti na. Kintu kridantanam rupajnane upayuktam pustakadvayam asti. Ekam tu samskrita bharatya prakashitam kridanta rupa nandini iti pustakam asti janardana hegade mahodayena likhitam tatra kridanta rupanam nirdeshartham eva tat pustakam asti bahu uttamam pustakam. He has prepared it with great rigor and effort. Tatra sarvesham api dhatunam kridanta rupani katham bhavanti. So, general, samanya kridanta pratyayeshu, evam vishishta pratyayeshu, kim kim rupam bhavati iti pradarshitam asti. So, it is a definitely a book worth having. Kridanta rupa nandini, janardana hegade mahodayena virachitam, samskrita bharatya prakashitam. So, samskrita bharatya apaneshu, sarvatra, labhyate. So another set of books is called a Kridanta Rupamala. So a set of 5 books published by the Sanskrit Education Society of Chennai. So Tatra Kridanta Rupamala iti 5 volumes, in which again it gives the Kridanta forms of all the dhatus. So that is also an old publication. It is actually available for download online. I mean, it's out of copyright, this one. It is available. So that is also useful. You can at least have those downloaded and have it for reference. But they are both only reference books. You cannot learn Kridantas through them. So, asya dhatoho kim rupam bhavati? What is the form of this dhatu? I mean, what are the Kridanta forms? You can get the forms, and of course, how do we get those forms? Okay, so they are both very useful reference books for Kridantas. Okay. Anye kechana prashnaha santi. Some of them are out of scope for now. I'm sorry, but I mean, it doesn't fit into this. So pratishthita, what is the dhatu and what is the krut pratyaya? Pra is the dhatu, pra is the upasarga, stha is the dhatu, and kta is the krut pratyaya. So we will see those as we come across. I think that's it. So there was a question. Vi sam ityarayaha upasargaha eteshamapi katham vibhaktayaha. So the upasargas are, again, we add sup and we delete them. So they are subantas, but it doesn't change their form. Okay. So teshamapi bhavati. As I said, to make them as subantas, we add vibhaktis, but it doesn't actually mean anything there. Okay. So is there a soft copy of Kridanta Rupanandini? No. It is a very recent publication. It was published only a couple of years ago. And it is a book worth buying for anybody. And there is no soft copy because it's a very recent publication. It's a single volume. Since it's a single volume, it's not even, you know, bulky, and definitely worth having. Okay.
Idanim prathamam pratyayam pashyamaha. Prathamaha pratyayaha अस्माभिः अधीयमानः अस्ति ल्युट् इति प्रत्ययः रूपे तु अन इति श्रूयते सो प्रत्ययस्य विषये अनन्तरं जानीमः आदौ तस्य कानिचन उदाहरणानि पश्यामः एतं श्लोकं अवलोकयन्तु पूर्वं राम तपोवनाभिगमनं हत्वा मृगं काञ्चनम् वैदेही हरणं जटायुमरणं सुग्रीवसंभाषणं वालीनिग्रहणं समुद्रतरणं लंकापुरीदाहनं पश्चाद्रावणकुंभकर्णहननं एतद्धि रामायणम् अयं श्लोकः एकश्लोकेन रामायणम् इत्युच्यते एकेनैव श्लोकेन रामायणस्य प्रमुखानां घटनानां संग्रहः अस्मिन् श्लोके दृश्यते एतद् हि रामायणम् रामायणम् नाम एतदेव किं किं पूर्वं राम तपोवनाभिगमनम् रामः आदौ वनं गतवान् अरण्यं गतवान् हत्वा मृगं काञ्चनम् तत्र काञ्चनम् मृगं नाम स्वर्णमृगं मायामृगं हतवान् वैदेही हरणं वैदेह्याः सीतायाः अपहरणम् आसीत् जटायु मरणं जटायुः मरणं प्राप्तवान् सुग्रीव संभाषणं सुग्रीवेण सह संभाषणं मैत्री सख्यम् आसीत् वाली निग्रहणं वालिनः हननम् अभवत् समुद्रतरणं हनुमान् समुद्रं लंघितवान् लंकापुरी दाहनम् लंका नगरं दग्धं पश्चात् रावण कुंभकर्ण हननम् रावण कुंभकर्ण इत्यादीनां राक्षसानां हननम् एतदेव रामायणम् इत्युच्यते. अत्र रक्तवर्णेन चिह्नितानि पदानि द्रष्टव्यानि. गमनम्, हरणम्, मरणम्, सम्भाषणम्, निग्रहणम्, तरणम्, दाहनम्, हननम्. All these words are words which indicate a specific action. Kriyabodhakani etani padani. Gamanam, the act of going. Haranam, to take away or carry away. Maranam, dying. Sambhashanam, speaking with or conversing. Nigrahanam, killing or controlling. Taranam, crossing. Dahanam, to make something burn. Hananam, killing. Evam, ete shabdaha, kriyam bodhayanti. Ete sarvepi shabdaha, kridantaha. So these are kridantas, specifically ludantas. That is words ending in the pratyaya called lyut. Anyamekam shlokam pashyamaha. करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं वमितं मधुरं शमितं मधुरं मधुराधिपते रचिलं मधुरं. श्रीकृष्णस्य विषये मधुराष्टकम् इति अष्टकमस्ति. मधुराधिपतेः मधुरानगरस्य अधिपतिः श्रीकृष्णः, तस्य अखिलं मधुरं, तत्सम्बद्धं सर्वमपि अत्यन्तं मधुरम् इति अस्मिन् अष्टके प्रतिपाद्यते. तत्र करणं, तरणं, हरणं, रमणम् इति चत्वारि पदानि दृश्यन्ते. करणं क्रिया, कृष्णः यद्यत् करोति तत्सर्वं. तरणं तरति, सः भक्तान् तारयति. हि हेल्प्स् द devotees cross the ocean of samsara. Haranam, haranam is to steal. He steals away navanitam, dadhi ityadikam, harati athava apaharati. Ramanam, ramanam is to please somebody, to act very pleasingly. Evam karoti, tarati, harati, ramate, etat sarvam api atyantam madhuram. So all these actions of Krishna are very madhura, very sweet. So atrapi karanam, taranam, haranam, ramanam, ete shabdaha lyudantaha. Lyut iti krit pratyayaha, saha pratyayaha atra drishyate. Etani padani pathanto. Gamanam, pathanam, lekhanam, bhojanam, kridanam, darshanam, करणं, क्रयणं, हरणं, तरणं, भ्रमणं, ग्रहणं. एते सर्वेपि शब्दाः. अत्र अन्ते अनम् अथवा अणम् इति दृश्यते. एषः प्रत्ययः भावार्थकः. सो भावार्थ मीन्स् भाव नाम धात्वर्थः. इट् मीन्स् एक्शन्. सो आल् दीस् वर्ड्स् रेप्रेजेण्ट् action. Kutra anam iti bhavati, kutra anam iti bhavati iti agre pashyamaha. So ayam pratyayaha lyut iti uchyate, yaha bhavam athava kriyam bodhayati. So gamanam, going, pathanam, reading, lekhanam, writing, bhojanam, eating, kridanam, playing, darshanam, seeing, karanam, doing, krayanam, buying something, haranam, to take away, taranam, crossing or swimming, bhramanam, moving around or wandering, grahanam, so holding, taking hold of something. So all these are lyudantas. So we will learn more about this pratyaya, the lyut, so in these classes. So the first pratyaya that we are studying is lyut. So, lyut iti pratyaye, yu iti bhagaha shishyate. So, paninina yatra pratyayaha uchyante, tatra adhikaha varnaha drishyante. So, always any suffix will have some additional letters. These letters help in identifying, or they help in performing certain operations, certain grammatical operations. For example, in ut, the actual pratyaya is u, but in the beginning there is one l, and at the end there is one t. So they are there for a specific purpose. So as you learn more about advanced grammar or Paninian grammar, you will understand the significance of those letters. But the pratyaya is u, and this u is replaced by ana. U ityasya sthane ana iti adeshah bhavati. Atayeva rupesha sarvatra gamana pathana ityatra ana iti shruyate. So the common feature of lute is that you hear that ana because of the u. Sarvebhyaha dhatubhyaha ayam pratyayah bhavati. So this lute pratyaya is a general krit pratyaya which is added to all dhatus. Okay, so any dhatu, to represent the action of that dhatu, we add this lute pratyaya. That is why it is a very useful pratyaya, because at the beginning stage, you can represent any action using this pratyaya. For example, for a dhatu like bhunkte, the kriyapada forms are slightly difficult. They are irregular dhatus. But bhojanam karoti, instead of saying bhunkte, bhunjate, bhunjate, we can easily use bhojanam karoti. Similarly, for kri, to buy, so kreenati, kreenitaha, kreenanti, the forms of the kriyapada are irregular. But using this pratyaya, it is very easy. So krayanam karoti, grahanam karoti, etc. So that is why this is a very general and a very useful pratyaya. So in the coming classes, we will learn about the forms, how to get the forms, how to use it, what are the rules, etc. So for now, we will have a simple exercise using these ludantas. How to derive these words and how to use them, katham prayogaha ityadikam pashyamaha, ka vibhaktihi kim lingam ityadi sarvam adhima varge pashyamaha. अद्य एकः लघु अभ्यासः अत्र केचन शब्दाः सन्ति एतेषां क्रमशः योजनं यथा क्रमं यथा प्रातःकाले किम् आदौ क्रियते किम् अनन्तरं सो जस्ट अरेंज दीज इन ऑर्डर ओके सो एनीबॉडी हु वांट्स टू ट्राई सो आई विल मेक दिस डिस्क्लेमर जनरली आई विल ट्राई टू आई मीन एज वी गो ऑन विथ मोर एक्सरसाइजेस everybody will get a chance, but there are not many exercises today because it is the first class. So don't worry. Sarvesham api avakashaha bhavishyati adya keshanchit bhavati. Eto hi adya adhikaha abhyasaha na santi. Sujata. I can't hear you. Are you speaking?
Uthanam.
Ha.
Yeah. Can you hear me?
What is it?
Uthanam.
Ha. Adau Uthanam.
Dantadhavanam.
Dantadhavanam.
Snanam.
Snanam.
Shalagamanam. Alpahara khadanam.
Okay. Bhavitum arhati. Yedi shalam gatva khadanti. यदि गृहे गत्वा खादित्वा गच्छन्ति तर्हि
आहारखादनं
शालागम उत्थानम् सो गेटिंग अप इन द मॉर्निंग दंतधावनम धावनम इज टू वाइटन एक्चुअली सो इट इज ब्रशिंग द टीथ दंतधावनम स्नानम स्नाति स्नानम स्नानम इज टेकिंग बाथ अल्पाहार खादनम खादति खादनम सो ईटिंग ब्रेकफास्ट शाला Gamanam, so going to school. So I am Kramaha. Uttanam, Dantadhavanam, Snanam, Shala Alpahara Khadanam, Shala Gamanam. So Etani Padani Uttanam, Dhavanam, Snanam, Khadanam, Gamanam. So all these represent actions. Okay. So Sayam Karmani, Sayankale Kim Kim Kriyateti, Tathaiva. Yathakramam yojaniyam.
వెంకటేశ్వరన్ మహోదయ. శ్రూయతే? ఇఫ్ యూ హ్యావ్ మ్యూటెడ్ యువర్ సెల్ఫ్ యూ హ్యావ్ టు క్లిక్ ఆన్ ద మైక్రోఫోన్ ఐకన్ టు
గృహాగమనం,
క్రీడనం,
భోజనం,
శయనం. సమ్యక్. గృహాగమనం, గృహస్య ఆగమనం. సో గమనం, ఆగమనం, కమింగ్ బ్యాక్. గృహాగమనం, క్రీడనం, ప్లేయింగ్, గృహకార్య లేఖనం. సో లిఖతి, లేఖనం, రైటింగ్, హోంవర్క్ ఇఫ్ దేర్ ఇస్ ఎనీ. సో ఆబ్వియస్లీ దిస్ ఇస్ ఫర్ ఎ స్కూల్ స్టూడెంట్, నాట్ ఎ జనరల్ దిస్ వన్. సో భోజనం, ఈటింగ్, ఫుడ్, మీల్స్, శయనం, స్లీపింగ్. సో లేఖనం, ఆగమనం, క్రీడనం, లేఖనం, భోజనం, శయనం. సో ఏతే సర్వే శబ్దాః క్రియాం బోధయంతి. సో దే ఆర్ అగైన్ రిప్రజెంటింగ్ యాక్షన్. సో ద్వితీయః అభ్యాసః. అత్ర అన్యః శ్లోకః అస్తి. అత్ర పదాని సంతి. పదాని చిత్వా అత్ర పూరణీయం. Okay, so this is another shloka similar to the shloka that we saw earlier. So etad bhagavatam purana kathitam shri krishna leelamratam. So bhagavatasya sangraha. So collection of the major incidents of the bhagavata. Yatha eka shlokena ramayanam drishtam evam eka shlokena bhagavatam. Bhagavate kim kim pravrittam iti anena shlokena uchyate. Atra padani santi రిక్తస్థానేషు పూరణీయాని. ఆదౌ పదాన్ని పశ్యామః. వర్ధనం, వర్ధతే, వర్ధనం ఇస్ టు గ్రో. జననం, టు బి బోర్న్. ఉద్ధారణం ఇస్ టు లిఫ్ట్. ఛేదనం ఇస్ టు కిల్. ఓకే, హియర్ ఇట్ మీన్స్ టు యాక్చువల్లీ స్ప్లిట్, బట్ ఇన్ దిస్ సెన్స్, ఇన్ దిస్ కాంటెక్స్ట్ ఇట్ మీన్స్ టు కిల్. ఆపాలనం, టు ప్రొటెక్ట్. అపహరణం ఇస్ టు టేక్ అవే ఆర్ టు టేక్ సంథింగ్. హననం ఇస్ అగైన్ టు కిల్. సో ఏతే శబ్దాః అత్ర రిక్తేషు స్థలేషు పూరణీయాః. జ్యోత్స్న. జ్యోత్స్న.
ఆదౌ దేవకి దేవి గర్భ జననం, జననం, గోపీ గృహే వర్ధనం.
థ్యాంక్ యూ. ఇనఫ్ టు విల్ ట్రై అదర్స్. సో ఆదౌ దేవకి దేవి గర్భ జననం. So born in the womb of Devaki. Adau Devaki Devi Garbha Jananam Gopi Grihe Vardhanam. So growing up in the house of the Gopi, that is Yashoda. Gopi Grihe Vardhanam. So next, Himanshu.
Maya Putani Jeevita ఛేదనం గోవర్ధన ఉద్ధారణం.
జీవిత అపహరణం, ఇట్ కుడ్ బి ఛేదనం, బట్ ఇన్ దిస్ కేస్ టు ఫిట్ ద ఛందస్ ఇట్ ఇస్ అపహరణం. జీవితాపహరణం, ఉద్ధారణం. అయితే మాయాపూతని జీవితం. సో అపహరణం, సో టేకింగ్ అవే జీవిత, ద లైఫ్ ఆఫ్ పూతని. Who came in a maya, in maya in a different form. Govardhanasya, so uddharanam, so lifting up the Govardhana mountain. Raghuram Mahodaya. रघुराम शेषाद्री महोदय
नमस्ते. Can you hear me?
Yeah.
Kamsa Chedana Kauravadi Hananam Kunti Sutta Palanam. Kunti Sutta
Palanam. So, Kamsa Chedana. So, it should be Chedanam, but since it is a part of a samasa, there is only Chedana. Kamsa Chedana Kauravadi Hananam. So, killing Kamsa and killing of the Kauravas. Kunti Sutta Palanam. Kunti Sutta Nam Apalanam Nama Rakshanam. Etad Bhagavatam Purana Kathitam Shri Krishna Leelamratam. So, this is the shloka. Adau Devaki Devi Garbhajananam Gopi Grihe Vardhanam Maya Putani Jeevita Paharanam Govardhanodharanam Kamsa Chedana Kauravadi Hananam Kunti Sutapalanam Etad Bhagavatam Purana Kathitam Shri Krishna Leelamritam. So this is the Eka Shloka Bhagavata. As we can see, wherever they are telling incidents, Tatra Asya Pratyasya Upayogaha Bahudha Bhavati. Valmiki Ramayane Api Tritiya Sarge. Ramayanasya Tritiya Sarge. Ramayanasya Bhinnanam Ghatananam Sankshepaha Bhavati. Tatra Bahuni Padani Santi. So, if you have a chance, if you look at the Valmiki Ramayane, Tritiyaha Sargaha, Tatra Bahuni Padani Labhyante, Etohi Tatra Ramayanasya Ghatananam Varananam Vidyate. Okay. So, Tatra Kashtana Prashnaha, can Chedana and Hanana be interchanged? Asmin Shloke, Arthe Bhedaha Na Bhavati, Kintu Chandasi na bhavati. Because this is a shloka, we have to take care of the chandas. So, kamsa chedana kauravadi hananam ityeva. Kamsa hanana kauravadi chedanam ityukte chandobhangaha. It will not fit into the meter. Arthe bhedaha nasyat, kintu shlokaha na bhavati. Yato hi vritta bhangaha bhavati. Okay. So, if that is it, we will stop here. There is just one question, which is actually, but I'll answer it. So, how are the pratyayas named? As in, they are called as su, au, ngas, or this is called ul, etc. Because a few students are overwhelmed with those words. Satyam kintu vastataha tatra bhetavyam kimapi nasti. So, in all pratyayas, what Panini tries to do is... he tries to add some identifying letters. So, the pratyaya will have its own letters and some other extra letters for identification. Okay, they help us in doing many things. Okay, possibly in some future class we will do this, or maybe you can email me so that I can respond to it, because it is not strictly in the purview of this class. Uttaram nishchayena vadami ekam email preshayatu tadvishaye kimartham te sarvepi atyantam avashyakaha. So that is why the pratyayas carry those additional letters. Okay. So kamsa chedanam vastutaha shloke kamsa ch chedana iti bhavati. Kamsa chedanam iti. Mama email address, it is here, saumya.krishnapur@gmail.com. So, it will be in all presentations. At the bottom of the presentation, you have saumya.krishnapur@gmail.com. Iti mama email ID. If you have any questions, you can write to me at my email ID. I will usually respond within a couple of days. Sometimes it may take a bit longer if I am occupied. Kintu uttaram tu dadami nischayena. Ataha yadi prashnaha santi tarhi prachantu. Astu atra asya vargasya sthaganam kurmaha. So we will stop it here. In the next class, we will learn more about the lute pratyaya, its forms, and using it in sentences. धन्यवादाः.